सहनाववतु सहनौ भुनक्तु सहवीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः श्रीगुरुभ्यो नमः
धन्यवादः भगिनी सर्वे सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं प्रवर्तमानः विषयः अस्ति तृतीया विभक्तिः तस्मिन् विषये गतवर्गे वयं रूपाणि दृष्टवन्तः अपि तत्र अभ्यासमपि कृतवन्तः तत्र तृतीया विभक्तेः प्रयोगः कुत्र कुत्र भवति इत्युक्ते तत्र भावः यत्र भावः भवति तत्र तृतीयविभक्तेः प्रयोगः भवति यत्र करणम् अथवा माध्यमं हस्तः अस्ति रामः हस्तेन खादति इति अत्र हस्तः माध्यममस्ति करणम् इति अपि उच्यते तत्र तृतीयविभक्तिरूपं भवति हस्तेन रामः हस्तेन खादति इति एकः प्रयोगः अन्यः प्रयोगः यत्र यत्र भावः अस्ति सः सन्तोषेण गच्छति अथवा सः सन्तोषेण गायति इति इदानीम् अग्रे तत्र अन्यः नूतन प्रयोगः तृतीयविभक्तेः सः इति यत्र भवति इदानीं तत् पश्यामः तत्र पेज् 174 मध्ये एतदस्ति तत्र नरेश महोदय आरम्भं करोति वा तत्र
आं महोदय उच्चैः पठत जानीत च सहयोगे तृतीया धृतराष्ट्रः सञ्जयः धृतराष्ट्रः सञ्जयेन सह सम्भाषणं करोति कृष्णः राधया सह नृत्यति अर्जुनः द्रौपद्या सह तिष्ठति कृष्णः मात्रा सह क्रीडति
तावत्पर्यन्तं तावत्पर्यन्तं महोदय अस्तु तत्र हा समीचीनं धन्यवादः महोदय अतः तत्र सञ्जयः अस्ति सञ्जयेन सह सम्भाषणं करोति धृतराष्ट्रः इति अपि कृष्णः अस्ति कृष्णः राधया सह नृत्यति अर्जुनः द्रौपद्या सह तिष्ठति कृष्णः मात्रा सह क्रीडति इति अस्तु अग्रे तत्र वाक्यं वाक्यानि परिशीलयामः तत्र गीताञ्जलि भगिनी अग्रे पठति वा
आं महोदय एतानि वाक्यानि उच्चैः पठत शिशुः मात्रा सह प्रसन्नः तिष्ठति
शिशुः मात्रा सह प्रसन्नः तिष्ठति तत्र मात्रा इति तृतीयविभक्तिरूपं प्रथमविभक्तिरूपं किम् अस्ति
शिशुः
न न मात्रा इति पदस्य मात्रा इति पदस्य प्रथमविभक्तिरूपं किम् अस्ति
मात्रा इति तु प्रथमविभक्ति महोदय रकारान्त रकारान्त स्त्रीलिङ्ग् पदम् अस्ति माता इति मातारौ मातारः
माता मातरौ मातरः समीचीनं भगिनि श्रीप्रिया भगिनि नमस्कारः भगिनि
नमस्ते महोदय
नमस्कार श्रूयते श्रूयते भगिनि श्रूयते पेज् 174 मध्ये स्मः
शकुनिः नकुलसह सहदेवाभ्यां सह युद्धं कृतवान्
तत्र नकुलः सहदेव यौ स्तः ताभ्यां सह युद्धं कृतवान् कृतवान् शकुनिः युद्धं कृतवान् तत्र सः तत्र नकुलसहदेवः तत्र द्विवचने अस्ति, तत्र प्रथमविभक्तिरूपं किं भवति भगिनि? नकलसहदेवौ इति द्विवचनं, द्विवचनम् इति भवति, हा द्विवचनं भवति तत्र, हा नकलसहदेवौ इति समीचीनं, हा अस्तु. अग्रे शुभदा भगिनि.
श्रीकृष्णः पाण्डवैः सह आसीत्. पाण्डवः इति रामः वत्, पाण्डवः पाण्डवाः पाण्डवान्, रामः रामौ रामान्,
न रामः रामौ रामाः, प्रथमविभक्तिरूपं, पाण्डवः पाण्डवौ पाण्डवाः. इदानीं तृतीय
पाण्डवेन पाण्डवाभ्यां पाण्डवैः.
हा यदि तत्र केवलं नकुलसहदेवः, नकलस्य सहदेवौ, तत्र केवलं पाण्डवद्वयम् अस्ति चेत् तत्र श्रीकृष्णः पाण्डवाभ्यां सह आसीत् इति, किन्तु पञ्चपाण्डवाः सन्ति इति कृत्वा इदानीं बहुवचनं, समीचीनं भगिनि. अस्तु अग्रे वेदा भगिनि.
महोदय, भीष्मः गङ्गया सह वार्तालापं कृतवान्. गङ्गया
इति
नदीवत्
न खलु भगिनि, तत्र नदी किं
गङ्गा, सोरि यथा महोदय गङ्गा
आकारान्त स्त्रीलिङ्ग, लताभिः, समीचीनं भगिनि, हा समीचीनम् अस्तु. अग्रे उषा भगिनि.
आं महोदय. बालिका शिक्षिकाभिः सह भ्रमणार्थं गच्छति. शिक्षिकाभिः, शिक्षिका इति रमावत् बहुवचने अस्ति, शिक्षिकाभिः सह भ्रमणार्थं गच्छति.
भ्रमणार्थम् इति रूपं कीदृशं तत्र? भ्रमणार्थम् इति स्थाने का विभक्ति, कां विभक्तिं स्थापयति?
भ्रमणाय
गच्छति, समीचीनं भगिनि, चतुर्थी तत्र स्थापितुं शक्नुमः, समीचीनं, हा अस्तु. अग्रे शोभा भगिनि.
भवन्तः, ओ अस्तु, क्षम्यताम् एकनिमिषं महोदय. त्वं भगिन्या सह पठ, तत्र भगिनी इति प्रथमाविभक्तौ, भगिन्या एकवचने, भगिन्या भगिन्याभ्यां भगिनीभिः,
अतः
तत्र भगिनी एव, तत्र एकवचने भगिनी एव अस्ति,
भगिन्या, भगिनी भगिन्या भवति, समीचीनं भगिनि, अस्तु अस्तु. अग्रे नरेश महोदय.
अस्मद् शब्दस्य
अस्माभिः, समीचीनं महोदय. अहम्, आवां, वयं, वयं पदस्य तृतीयविभक्तिरूपम् अस्माभिः भवति, समीचीनं महोदय. अस्तु अग्रे गीताञ्जलि भगिनि. अस्तु शुभदा भगिनि.
महोदय, अहं त्वया सह चलामि. त्वं शब्दस्य तृतीया विभक्ति एकवचन, त्वं युवां यूयम् इति प्रथमा विभक्ति भवति, त्वया इति तृतीया विभक्ति एकवचन.
हा तत्र पूर्वस्मिन् पुटे रूपाणि दत्तानि सन्ति खलु, तत्र त्वया युवाभ्यां युष्माभिः, अपि मया आवाभ्याम् अस्माभिः इति, अस्तु समीचीनं भगिनि, अस्तु. श्रीप्रिया भगिनि.
सेनापतिः सारथिना सह तिष्ठति. सारथिना नकारान्तः पुल्लिङ्गः सारथिं शब्दः. प्रथमाविभक्तिरूपम् अस्ति सारथि सारथिनौ सारथिनः. तृतीयाविभक्ति एकवचनं सारथिना भवति.
हा समीचीनं भगिनि. हा तत्र हलन्तपदम् अस्ति किन्तु अस्तु समीचीनमेव. धन्यवादः भगिनि. अस्तु अग्रे गीतञ्जलि भगिनि. अस्तु अस्तु तर्हि तत्र एतत् इदानीम् एकः प्रश्नः अत्र सः इति अस्ति. सः इति यत्र सः भवति तत्र तु वयं जानीमः सः यत्र भवति तत्र तृतीया इति रूपं भवति. किन्तु कः भेदः तत्र सः इति यत्र भवति अपि तत्र विना सः तृतीया रूपं यत्र भवति तत्र भेदः अस्ति वा? कः भेदः इति सम्यक्तया कथम् अवगन्तुं शक्नुमः? तत्र उदाहरणं स्वीकुर्मः. तत्र रामः हस्तेन खादति, अपि रामः लक्ष्मणेन सह वनं गच्छति. तत्र तृतीया विभक्ति वाक्यद्वये अपि भव अस्ति. एकमस्ति लक्ष्मणेन सह, अन्यत् अस्ति हस्तेन इति. तत्र हस्तेन तृतीयविभक्ति, लक्ष्मणेन तृतीयविभक्ति. तत्र तृतीयविभक्तेः प्रयोगः समानः वा? एकस्मिन् सः इति भवति, अन्यस्मिन् सः इति नास्ति. तत्र सः यत्र भवति तत्र अर्थपरिवर्तनं भवति वा इति प्रश्नः.
तत्र महोदय हस्तेन खादति. ओ क्षमतां, भवान् किम् उक्तवान्? हस्तेन सह उक्तवान् वा?
न न न, रामः हस्तेन खादति, रामः हस्तेन खादति. अन्यत् वाक्यम् अस्ति रामः लक्ष्मणेन सह वनं गच्छति.
हस्तेन
हस्तः इति साधनं, साधनं समीचीनम्. अस्तु हस्तः इति साधनम् अथवा माध्यमम् अथवा करणं यत् यदपि किमपि भवतु समीचीनम्. अतः तत्र हस्तः इति माध्यमम् अस्ति. तत्र अपि यत्र लक्ष्मणः अस्ति तत्र तु माध्यमं नास्ति खलु तत्र. किन्तु सम्यक्तया कथम् अवगन्तुं शक्नुमः तत्र किं वक्तव्यमस्ति? अत्र तत्र वयम् अवगच्छामः तत्र रामः हस्तेन खादति इति स्थाने यदि वयं वदामः रामः हस्तेन सह खादति इत्युक्ते इदानीम् अर्थः कः? रामः हस्तेन खादति एकं वाक्यम्. अन्यत् वाक्यं रामः हस्तेन सह खादति.
तत्र हस्तः साधनं करणं न भवति.
किन्तु किं भवति तत्र?
तत्र अर्थः तु लक्ष्मणेन सह रामः इति एव भवति.
हा समीचीनं, हा समीचीनं. हा सर्वे वयं सर्वे अवगच्छामः एत तत्र अर्थपरिवर्तनं भवति सः इति पदस्य योजनेन. किन्तु यः भेदः भवति सः पदस्य योजनेन सः भेदः कथं दर्शनीयः इति. अतः एकं तु अत्र वक्तुं शक्नुमः अत्र सः यत्र भवति उदाहरणार्थं यत् तत्र यत् उदाहरणं पुस्तके अस्ति तत्र धृतराष्ट्रः सञ्जयेन सह सम्भाषणं करोति इति अस्ति वाक्यं खलु. तत्र किं वयम् एतत् वक्तुं शक्नुमः वा? सञ्जयः धृतराष्ट्रेण सह सम्भाषणं करोति एतत् वक्तुं शक्नुमः वा? अथवा कृष्णः राधया सह नृत्यति, राधा कृष्णेन सह नृत्यति वक्तुं शक्नुमः वा? हा द्रौपदी अर्जुनेन सह तिष्ठति, अर्जुनः द्रौपद्या सह तिष्ठति, कृष्णः मात्रा सह क्रीडति, माता कृष्णेन सह क्रीडति, वक्तुं शक्नुमः खलु? अतः तत्र यत्र सः इति भवति तत्र किम् अस्ति, तत्र धृतराष्ट्रः सम्भाषणं करोति इति वाक्यम् अस्ति, तस्मिन् वाक्ये सञ्जयेन सह इति वयं स्थापितवन्तः. तत्र धृतराष्ट्रः सम्भाषणं करोति, सा एव क्रिया सञ्जय अपि करोति, सञ्जय अपि सम्भाषणं करोति धृतराष्ट्रेण सह. अतः तत्र सः यत्र भवति अत्र पदद्वयम् अथवा पुरुषद्वयम् अथवा कर्ताद्वयम् इति चिन्तयामः, कर्ताद्वयम् अपि समानक्रिया कुर्वन् सन्ति. वदतु भगिनि
प्रश्नः. तत्र विपरीतक्रमेण अपि तद् वाक्यं कार्यं करोति.
हा खलु, तत्र केवलम् एम्फसिस् इति वद, तत्र रामः किं करोति, रामः लक्ष्मणेन सह गच्छति, किन्तु तत्र वयं रामस्य विषये किमपि वक्तुम् इच्छामः, किन्तु परिस्थितिः दृष्ट्वा वाक्यं लक्ष्मणः रामेण सह गच्छति तदपि साधु एव, किन्तु कथायां तत्र सन्दर्भानुसारं वयं रामः लक्ष्मणेन सह सीतया सह वनं गच्छति इति वदामः, किन्तु तत्र क्रिया तु सर्वे कुर्वन् सन्ति, समानक्रिया अस्ति. किन्तु यदा वयं वदामः रामः हस्तेन खादति, तत्र हस्तः स्वयं न खादति खलु? हा, हस्तः क्रियायाः माध्यमम् अथवा करणम् अस्ति, किन्तु हस्तः स्वयं न खादति, तत्र रामः हस्तेन खादति, अतः हस्तः रामेण खादति इति न वक्तुं शक्नुमः खलु. अतः सः एव भेदः, यत्र सः इति अस्ति तत्र क्रिया कर्ताद्वयं वाक्ये भवति, तत्र एकं वाक्यस्य कर्तृपदं भवति, अन्यत् अथवा अन्यः अथवा अन्या कोऽपि यः कोऽपि भवतु तस्य अथवा तस्याः तृतीया विभक्तिरूपं तत्र भवति सः इति पदस्य पूर्वम् इति. अतः तत्र श्रीकृष्णः पाण्डवैः सह आसीत्, तत्र पाण्डवाः श्रीकृष्णेन सह आसन् इति तदपि वाक्यं भवितुम् अर्हति. अतः तत्र सः अस्ति चेत् सहयोगः इति, तत्र समानं, तत्र किमपि सामान्यम् अस्ति, यदि तत्र सामान्यं नास्ति तत्र एकस्य प्रथमविभक्तिरूपमेव भवति, अन्यस्य तृतीयविभक्तिरूपमेव भवति इति वार्ता. अस्तु अस्तु, तर्हि अग्रे गच्छामः. इदानीं तत्र अभ्यासः अस्ति, तदनन्तरं तत्र अहं एकं लिङ्क् अपि प्रेषितवान्, तत्रापि अभ्यासाः सन्ति, तदपि अद्य कर्तुं शक्नुमः इति मन्ये. अस्तु तर्हि अग्रे गच्छामः. तत्र हा, लक्ष्मी भगिनी वक्तुम् इच्छति वा अग्रे? लक्ष्मी भगिनि अस्तु
अस्तु महोदय. कुत्र?
पेज् 175 इदानीं. 175 तत्र प्रतिध्वनिः बहु किमपि अस्ति कुतः इति न जानामि.
अभ्यासः कुरुक्षेत्रे तदेव.
हा हा हा, समीचीनं भगिनि. हा,
कुरुक्षेत्रे युद्धारम्भे पाण्डवसेनापतिः दृष्टद्युम्नः कः केन सह युध्यदा इति निर्दिशति. अतः तेषां नामानि दत्तानि सन्ति. तेषाम् उपयोगेन यथा यतोदाहरणं सः इति शब्देन वाक्यानि रचयेत. अर्जुनः कृष्णः. अर्जुनः कृष्णेन सह युध्येत. भीमः दुर्योधनेन सह युध्येत.
कर्णेन महोदय.
अर्जुनः कर्णेन. हा, इदानीं भीमः दुर्योधनेन.
दुर्योधनेन सह
युध्येत इति. समीचीनं भगिनि. हा अस्तु, अग्रे श्रीप्रिया भगिनि.
नकुलः द्रौणिः. नकुलः द्रौणिः. नकुलः
हरिः अथवा कवि कविः पदवत् भगिनि. द्रौणिना सह युध्येत. समीचीनं. हा अग्रे वेद शुभदा भगिनि अग्रे.
उत्तमौजाः कृपेण सह युध्येत.
हा
कृपेण सह.
कृपेण कृपेण सह. हा कृपेण न ऋणत्वं भवति. हा
ऋणत्वं भवति.
हा वेदा भगिनी अग्रे.
सहदेवः शकुनि. सहदेवः शकुनिः. सहदेवः शकुन्या.
न न, शकुनिः इति कविपदवत्. इकारन्त पुल्लिङ्गः. कविना हरिणा.
शकुनिना. सहदेवः शकुनिना सह युध्येत.
हा तत्र सः यत्र भवति तत्र किं कर्तव्यं? तत्र तृतीयविभक्तन्तपदं तदनन्तरमेव सः वक्तव्यमस्ति तत्र. हा अतः शकुनिना सह इति, तदनन्तरं युध्येत.
परन्तु शकुनि शकुन्या
किमर्थं शकुन्या? न न न, स्त्रीलिङ्गपदं नास्ति खलु एतत्. हा कविः पदवत् एव अस्ति भगिनि. अतः सहदेवः शकुनिना सह
युध्येत
इति. समीचीनं. हा अस्तु, अग्रे शोभा भगिनि.
चेकितानः. चेकितानः शलः. चेकितानः शलेन सह युध्येत.
शलेन सह युध्येत. समीचीनं. हा अस्तु, अग्रे नरेश महोदय.
शिखण्डी भीष्मः. शिखण्डी भीष्मेण सह युध्येत.
हा तत्र णकारणत्वं भवति भीष्मेण इति. समीचीनं महोदय, भीष्मेण सह युध्येत. समीचीनम्. उषा भगिनि.
आम् महोदय. अभिमन्युः वृषसेनः. अभिमन्युः वृषसेनेन सह युध्यते.
युध्येत. 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 हा युध्येत इति तत्र निर्देशनम् अस्ति, एतत् करोतु इति. हा तत्र तत्र युध्येत, युद्धं करोतु इति तादृश विधिलिङ्ग् लोट्लकार समान अर्थः भवति. अतः तत्र युद्धं करोतु इति, तेन सह युद्धं करोतु. अभिमन्युः वृषसेनेन सह युद्धं करोतु इति अर्थः. अस्तु, गीताञ्जलि भगिनि अग्रे.
सात्यकिः जयधृतः. सात्यकिः जयधृतेन सह युध्येत.
हा तत्र जयद्रथेन सह युध्येत. तत्र तृतीयविभक्तिपदम् अनन्तरमेव तत्र सः भवतु, तत्र विलम्बः मास्तु. नो चेत् तत्र क्लेशः भवति. तत्र जयद्रथेन सह युध्येत भवति चेत् किञ्चित् क्लेशः भवति. अतः जयद्रथेन सह युध्येत इति. हा तत्र सुलभतया
जयधृतेन सह युध्येत.
हा इति. समीचीनं भगिनि. हा अस्तु, अग्रे लक्ष्मी भगिनि.
दृष्टकेतुः शल्यः. दृष्टकेतुः शल्येन सह युध्येत
इति. समीचीनम् अस्तु. हा अस्तु, तर्हि तत्र सः यत्र भवति तत्र तृतीयारूपम् अस्ति इति. अस्तु, इदानीं तत्र सः इति उपयुज्य अन्यानि वाक्यानि अपि सन्ति, तदपि कुर्मः. तदनन्तरं तत्र अन्यत् करपत्रं रूपेण अन्यत् अपि अस्ति, तदपि कर्तुं शक्नुमः. अस्तु, अग्रे नरेश् महोदय. प्रायशः शिखण्डिन् इति भवति इति मन्ये भगिनी, शिखण्डिन्, अतः तत्र शिखण्डी इति रूपं पुल्लिङ्गपदम् इति भवति खलु तत्र कथानुसारं. हा, प्रायशः शिखण्डिन् इति, शिखण्डी इति प्रथमाविभक्तिरूपम् अस्ति, हलन्तपदम् अस्ति भगिनि.
उदाहरणं दृष्ट्वा वाक्यानि रचयत. उदाहरणं, सीता रामेण सह वनं गच्छति. धृतराष्ट्रः सञ्जयः, धृतराष्ट्रः सञ्जयेन सह वार्तालापं करोति.
हा, वार्तालापं करोति, समीचीनम्. अस्तु, अग्रे श्रीप्रिया भगिनी इदानीं.
सः युध्येय इति अर्जुनः पृष्टवान्, के अस्ति? अहं कैः सह युध्येय इति अर्जुनः पृष्टवान्.
हा, अहं कैः सह युध्येय इति अर्जुनः पृष्टवान्, समीचीनम्. वंशीसुधा भगिनी नमस्कारः. पेज् 175 मध्ये स्मः भगिनी.
नमस्ते महोदय.
नमस्कारः भगिनी. अस्तु, अग्रे शुभदा भगिनी.
महोदय, भक्तः सर्वे इति आगतमस्ति. भक्तः सर्वैः सह स्नेहेन व्यवहरति.
हा, सर्वैः सह स्नेहेन व्यवहरति. तत्र स्नेहेन इति तृतीयविभक्तन्तं, सर्वैः सह अपि तृतीयविभक्तन्तं. हा, तत्र स्नेहेन इति
भावः अस्ति,
भावः अस्ति. सर्वैः इति तत्र सः इति पदस्य योजनेन तत्र सर्वैः इति आगतम् अस्ति. तत्र स्नेहेन इति तत्र तत् तृतीया किमर्थम् इत्युक्ते तत्र क्रियापदस्य अन्वयः अस्ति तत्र. स्नेहेन इति तत्र क्रियापदस्य अन्वयः अस्ति, व्यवहरति, स्नेहेन व्यवहरति इति. किन्तु सर्वैः, हा, क्रियाविशेषणं न, किन्तु क्रियापदस्य कारणात् तत्र वाक्ये तत्र कारक इति विभक्ति, द्विविधविभक्तेः कारणं तत्र उपपदविभक्तिः अस्ति, कारकविभक्तिः इति अस्ति. सः इति यत्र भवति तत्र सः इति पदस्य कारणेन सर्वैः इति रूपं जातम् इति कृत्वा तत् उपपदविभक्तिः इति वदामः. अग्रे गीतासोपने द्वितीयभागे अस्ति खलु एतत् उपपदविभक्तिः. किन्तु स्नेहेन इति तु तत् कारकविभक्ति, तत्र साधारणविभक्तिरूपं, तृतीयविभक्तिरूपम्. अस्तु, अग्रे वंशीसुधा भगिनी अग्रे पठति वा, तत्र पेज् 175 चतुर्थ, इदानीं कर्णः इति.
आं महोदय, कर्णः कुन्ती अस्ति, कुन्ती सह, अस्तु, कुन्त्या सह सम्भाषणं कृतवान्.
हा, कर्णः कुन्त्या सह सम्भाषणं कृतवान्, कुन्ती इति इकारान्त स्त्रीलिङ्गं, समीचीनं भगिनि. अस्तु, उषा भगिनी अग्रे.
आं महोदय, सः मित्रं दत्तं तत्र, मित्रेण सह गच्छति, नत्वं भवति.
नत्वं भवति, समीचीनम्. अस्तु, शोभा भगिनी.
प्रजापतिः यज्ञः तत्र, प्रजापतिः यज्ञेन सह प्रजाः असृजत्.
प्रजापतिः यज्ञेन सह प्रजाः असृजत्.
किं भवति तत्र महोदय, यज्ञेन सह प्रजाः, तत्र प्रजाः इति द्वितीयविभक्तौ. असृजत्, सृजत् इत्युक्ते सिद्धा इति खलु महोदय?
असृजत् तत्र सृष्टि करोति.
ओ, सृष्टि वा, ओ,
तेषां सृष्टिः करोति. असृजत्,
अस्तु अस्तु.
हा, किन्तु तत्र प्रश्नः तु तत्र प्रायशः अस्ति, तत्र प्रजाः इति अस्ति, तत्र कर्मपदं वा इति चेत् तत्र द्वितीयविभक्तिरूपं भवेत् खलु इति, किन्तु प्रजाः इति अस्ति, पश्यामः तत्र प्रजान् असृजत्वा अथवा प्रजाः इति एव तत्र, किन्तु तत्र प्रजः इति अकारान्तपदं वा इति द्रष्टव्यमस्ति. अस्तु, किन्तु इति स्त्रीलिङ्गः. अस्तु, समीचीनं. इदानीं समीचीनम्. अस्तु, धन्यवादः. अस्तु, प्रजा इति स्त्रीलिङ्गपदं. हा, प्रजाः असृजत्. धन्यवादः. अस्तु, समीचीनम्. अस्तु, वेदा भगिनी अग्रे.
महोदय, अत्र यज्ञेन सह अत्र यज्ञः अपि कर्ता भवति वा? सः सः अव्यय भवति तत्र, कर्ता द्वयं समानं क्रिया कुरुतः. यज्ञः इति
सत्यं भगिनि, सत्यं, समीचीनप्रश्नः. तत्र किमर्थं यज्ञः करणं नास्ति इति, माध्यमं नास्ति इति खलु भवत्याः प्रश्नः? सत्यमेव, न जानामि तत्र किमर्थं तत्र सः इति अस्ति. तत्र साधारणचिन्तनम् एतद् अस्ति, तत्र प्रजापतिः यज्ञेन प्रजाः असृजत् इति, किन्तु तत्र सः इति अपि योजितमस्ति. योजितमस्ति, समीचीनमेव भगिनि, न जानामि. हा, समीचीनप्रश्नः, किमर्थं तत्र सः इति अस्ति. प्रजा इति अस्ति, प्रजा स्त्रीलिङ्गे अस्ति. तत्र आकारान्तस्त्रीलिङ्गपदं, तत्र रूपं लता इति पदस्य रूपं किं भवति?
प्रथमविभक्तिरूपं
लताः. तदनन्तरं तत्र द्वितीयविभक्तौ इदानीं द्वितीयविभक्तिरूपं द्वितीयविभक्तिरूपं
लता इत्युक्ते लतया
लता न द्वितीया द्वितीया द्वितीयविभक्ति
लता
लता लता इति. अस्तु, लतां
लते लता.
हा, अतः प्रजां प्रजे प्रजाः इति. अतः कर्मपदम् अस्ति, असृजत् इति अस्ति. असृजत् इति किम् असृजत्?
सृजति अकर्मक अस्ति महोदय
इति वा? सृष्टिः तत् कथं भवति?
सृजति वा महोदय?
असृजत् तत्र सृष्टिः करोति, सृष्टिः करोति इति.
सृज धातुः अस्ति वा महोदय?
हा, इति मन्ये भगिनि. हा,
सकर्मकः अस्ति भगिनि, उदादिगणे सकर्मकः. सृज अपि अन्यः धातुः अपि अस्ति दिवादिगणे, तत्तु
तत्तु अकर्मकः अस्ति.
तुदादिगणे तु सकर्मकः.
किमर्थं तुदादिगणे सकर्मक, दिवादिगणे अकर्मकः?
तत् अर्थभेदः अस्ति, तत्र अनेकाः कारणाः सन्ति तत्र. अस्तु, किन्तु अत्र कर्मपदम् एव अस्ति, किन्तु किमर्थं तत्र सः इति अस्ति तत्तु
दोषः अस्ति प्रायशः.
न जानामि भगिनि. सत्यं भगिनि, किन्तु तत्र इदानीं प्रश्नः तत्र किमर्थं सः इति अस्ति इति. सः इति किमर्थं तत्र सः इति यज्ञेन सह इति किमर्थम् अस्ति? तत्र केवलं प्रजापतिः यज्ञेन प्रजाः असृजत् इति किमर्थं नास्ति इति प्रश्नः. अस्तु, तत्र चिन्तनीयमस्ति भगिनी, शुभदा भगिनी, न जानामि. अस्तु, अग्रे
अहं एतौ सह गीतं गास्यामि. एतौ तृतीया विभक्ति रूपमस्ति एताभ्याम्. अहम् एताभ्यां सह गीतं गास्यामि.
अहम् एताभ्यां सह गीतं गास्यामि. अस्तु, समीचीनं भगिनि. अस्तु, अग्रे नरेश महोदय.
भगिनी तृतीया विभक्ति एकवचनं भगिन्या माता भगिन्या सह मन्दिरं गमिष्यति.
हा भगिन्या सह मन्दिरं गमिष्यति. अस्तु समीचीनं. गीताञ्जलि भगिनि.
नायकः सारथिः. सारथिः मन्ये एकं महोदय.
सत्यं भगिनि, तत्र
सारथिन् अस्ति महोदय.
हा तत्र तत्र तु सारथिना इति सारथिः सारथिन् इति अपि आम् अहं चिन्तितवान् सारथिन् इति प्रायशः, किन्तु रूपं तत्र पूर्वस्मिन् पुटे दत्तमस्ति भगिनि सारथिना इति.
सारथिना सह युद्धभूमिं प्रविशति.
प्रविशति, समीचीनं भगिनि. अस्तु अस्तु तर्हि इदानीं तत्र अग्रिमे पुटे विना इति एकमेव पुटमस्ति. एतत् कृत्वा अग्रे तत्र लिङ्क् यत् प्रेषितं तद् तत् कुर्मः, तत् पठामः. अस्तु वदतु भगिनि, उषा भगिनी वदतु.
अधुना माता भगिन्या सह मन्दिरं गमिष्यति. माता भगिन्या अपि च पुत्री पुत्रः अस्ति चेत् महोदय.
हा वदतु भगिनि.
माता भगिन्या पुत्र्या पुत्रेण सह मन्दिरं गमिष्यति इति वक्तुं शक्नुमः.
नमः. समीचीनं भगिनि, सत्यं सत्यं. तत्र हा तत्र माता भगिन्या पुत्र्या पुत्रेण च, अथवा तत्र च प्रायशः स्थापनीयम् अस्ति इति मन्ये. तत्र तत्र छ कुत्र भवति, सः तदनन्तरं छ वा अथवा छ तदनन्तरं सः वा इति किञ्चित् क्लेशः अस्ति मम मनसि. प्रायशः छ तदनन्तरं सः इति प्रायशः अस्ति. मन्दिरं गमिष्यति. हा इति इति मन्ये, किन्तु तत्र केवलम् एकमेव इति नास्ति भगिनि, सत्यमेव. अस्तु
क्षम्यता. सारथिः हरिवत् गच्छति, नकारान्तः नास्ति वा? सारथिः अस्ति, हरिवत् एव गच्छति वा?
तत्र कविवत् एव अस्ति इति खलु भगिनि भवति. तत्र हलन्तपदं सारथी इति अहं चिन्तितवान्, न सारथिन् इति प्रायशः अस्ति इति, किन्तु प्रायशः कविवत् एव अस्ति इति, तदपि प्रायशः सत्यमेव. हा यतोहि तत्र सारथिना इति एव रूपं दत्तम् अस्ति तत्र.
तत्र तु सारथिः दत्तमस्ति, सारथिः
सारथिः इति एव दत्तमस्ति. अपि तत्र प्रायशः सारथिन् इति आसीत् चेत् तत्र तत्र प्रायशः हलन्तपदं नास्ति भगिनि, यतोहि तत्र सारथिन् इति नकारान्तपदम् अस्ति चेत् तत्र प्रथमविभक्तौ किं भवति, तत्र योगिन् इति अस्ति खलु, हा योगी इति दीर्घ ईकारः भवति, अतः तत्र सारथिः एव अस्ति. अत्र ह्रस्व ईकारः इति कृत्वा प्रायशः कविशब्दवत् एव अस्ति. अतः पूर्वं यत् मया उक्तं तत् प्रायशः दोषायामेव, तत्र सारथिन् इति नास्ति, सारथिः इति कविशब्दवत् एव अस्ति. धन्यवादः भगिनि. अस्तु अस्तु अग्रे गच्छामः तर्हि. तत्र अग्रिमे पुटे इदानीं विना इति, तत्र विना योगे अपि तृतीया इति. अस्तु तत्र वेदा भगिनी पठति वा?
विना योगे तृतीया. कृष्णेन सह पाण्डवसैन्यमस्ति, कृष्णेन सह पाण्डवसैन्यमस्ति, कृष्णेन विना कौरवसैन्यम् अस्ति.
विना सह इत्युक्ते
योगे कृष्णे
योगे
न योगे अस्ति चेत् विना
विना इति वियोगः तत्र सः नास्ति. हा तत्र वित् अण्ड् वितौट् इति सः विना इति. अस्तु तत्र सः मध्ये अपि तृतीया, विना मध्ये अपि तृतीया. किन्तु तत्र बिना इति मध्ये वयं जानीमः तत्र प्रायशः अभ्यासपुस्तके अपि एतद् अस्ति इति मन्ये, तत्र बिना योगे तत्र द्वितीयाविभक्तिरूपमपि स्थापितुं शक्नुमः. तत्र कृष्णं विना कौरवसैन्यम् अस्ति इति तद् प्रायशः अभ्यासपुस्तके अपि अस्ति. कृष्णं विना इति पञ्चमी विभक्ति अपि तत्र स्थापितुं शक्नुमः. किन्तु तत्र यदि वयं वाक्यं कर्तुम् इच्छामः तत्र प्रायशः तृतीया वा द्वितीया वा सुलभः भवति. किन्तु कथायां पञ्चमी स्वीकृतं चेत् तदपि ज्ञातव्यम्. अतः तत्र द्वितीयाविभक्ति, तृतीयाविभक्ति, पञ्चमी विभक्ति त्रयमपि भवितुम् अर्हति तत्र. अतः विभक्तित्रयं भवितुम् अर्हति विना इति पदस्य पूर्वपदस्य विभक्ति. अस्तु, अग्रे पठतु भगिनि. सूर्येण विना प्रकाशः न भवति. अस्तु, समीचीनं भगिनि. अस्तु
महोदय, पाण्डवसैन्यम् इति कीदृशपदं महोदय?
सैन्यं नपुंसकलिङ्गपदमेव. न न न, सैन्यम् इति सेना इति स्त्रीलिङ्गपदम् अस्ति. सेना स्त्रीलिङ्गपदम् अस्ति, सैन्यं नपुंसकलिङ्गपदम्. समानार्थक
लुडन्तपदम् अस्ति वा?
किमर्थम्? अस्तु, सेना अथवा सैन्यं द्वयमपि साधु एव, समानार्थकपदम्. अस्तु, अग्रे शोभा भगिनि.
आं महोदय,
अहम् अथवा घट्या
घट्या घट्या विना समयस्य ज्ञानं न भवति.
हा, घट्या विना समयस्य ज्ञानं न भवति.
घटी इति प्रथमविभक्तौ.
हा, घटी ईकारान्त स्त्रीलिङ्गपदं, तस्य तृतीयविभक्ति. समीचीनं. शुभदा भगिनि.
रामः भरतशत्रुघ्नाभ्यां विना वनं गतवान्. तृतीया विभक्ति द्विवचन द्वे अस्ति, द्वे स्तः, अतः तृतीया विभक्ति द्विवचन.
भरतशत्रुघ्नौ न स्तः, अतः रामः भरतशत्रुघ्नाभ्यां विना वनं गतवान्. समीचीनम्. अस्तु, अग्रे वंशीसुधा भगिनि.
दशरथः रामेण विना न जीवितवान्.
रामेण इति समीचीनं भगिनि. अस्तु, इच्छा भगिनि अग्रे. हा, न जानामि भगिनि कुतः इति. तत्र अस्तु, उषा भगिनी इदानीं.
अहं मित्रेण विना विपणि गच्छामि. मित्रं मित्रे मित्राणि, मित्रेण नत्वं भवति
महोदय. नत्वं भवति, समीचीनम्. अहं मित्रेण विना विपणिं गच्छामि. तत्र मित्रेण इति स्थाने अन्यत् किं स्थापितुं शक्नुमः तत्र? न श्रूयते भगिनि.
अहं सख्या विना विपणि.
न न न, मित्रेण इति तृतीयविभक्तिरूपं, किन्तु अन्यत् किं स्थापितुं शक्नुमः तत्र?
इत्युक्ते किं महोदय?
तत्र द्वितीयविभक्तिरूपमपि.
ओ, मित्रं.
हा, मित्रं विना
विपणि विना विपणिं गच्छामि.
हा, तदपि साधु अस्ति. समीचीनं भगिनि. अस्तु, गीताञ्जलि भगिनि अग्रे.
वेदैः विना भारतस्य प्रसिद्धिः नास्ति.
हा, वेदैः विना
तृतीय बहुवचनरूपं. वेदैः विना
भारत, यदि वेदाः न सन्ति भारतस्य प्रसिद्धिः न भवति, न सम्भवति. लक्ष्मी भगिनी अग्रे.
अस्तु महोदय, सैनिकैः विना देशरक्षणं न भवति. सैनिकः सैनिकैः
बहुवचनं. तत्र द्वितीया भवति चेत् किं किं भवति?
सैनिकान्.
हा, सैनिकान् विना
देशरक्षणं न भवति. पञ्चमी चेत् सैनिकात् विना.
न न न, सैनिकात् न, सैनिकात् न, बहुवचनम् अस्ति खलु. अतः किं भवति?
सैनिकाभ्यः.
हा, सैनिकेभ्यः, रामेभ्यः, सैनिकेभ्यः विना
देशरक्षणं न भवति.
इति समीचीनं भगिनि.
महोदय, कुत्र अत्र अभ्यासः? मम पार्श्वे न.
किं भगिनि?
अभ्यासः
वा? अत्र एव अस्ति भगिनि, यत्र भवती पठितवती पेज् 176 मध्ये एव, तत्र कृष्णेन विना कौरवसैन्यम् अस्ति इति वाक्यम् अस्ति खलु, तस्य अधोभागे अस्ति.
ओ ओके, सोरि.
सत्यं वा? तत्र तत्र वाक्यचतुष्टयम् एकभागे अस्ति, वाक्यत्रयम् अन्यस्मिन् स्तम्भे अस्ति. तावदेव. अस्तु, अग्रे श्रीप्रिया भगिनि.
कोष्ठके दत्तानां शब्दानां साहाय्येन रिक्तस्थानानि पूरयत. उदाहरणार्थं, बालः दुग्धेन विना भोजनं न करोति. दुग्धम् इति नपुंसकलिङ्गपदम् अस्ति. दुग्धेन तृतीया एकवचनम् अस्ति.
तत्र दुग्धेन विना इति. अत्र अत्र तु जानीमः, तत्र माध्यमं नास्ति, भावः नास्ति, किमपि नास्ति, तत्र विना इति. अस्तु, समीचीनं भगिनि. तत्र दुग्धेन विना भोजनं न करोति. समीचीनम्. अग्रे भगिनि.
वृद्धः विना न चलति, दण्डः अस्ति. वृद्धः दण्डेन विना न चलति.
दण्डेन विना न चलति. समीचीनं भगिनि. अस्तु, अग्रे नरेश् महोदय.
देशभक्तेन विना न शोभते.
देशः देशभक्तेन विना
न शोभते.
न शोभते. समीचीनं महोदय. अस्तु, अग्रे शुभदा भगिनी.
अपि देशभक्तैः अपि समीचीनम्.
हा, समीचीनं. किन्तु तत्र विना अस्ति चेत् भगिनी, तत्र विना अस्ति चेत् तत्र प्रायशः एकमेव पर्याप्तमिति खलु. तत्र सः अस्ति चेत् देशभक्तैः सह शोभते इति वक्तुं शक्नुमः. देशभक्तेन विना इति प्रायशः समीचीनम् अस्ति इति मन्ये खलु.
सैनिकैः विना अपि च वेदैः विना
देशभक्तः एकवचने अस्ति न महोदय? तत्र
एकवचनम् अस्ति, देशभक्त दत्तमस्ति.
हा, सत्यं सत्यं. किन्तु तत्र हा, तदपि अस्तु, समीचीनमेव. अस्तु, अस्तु, अग्रे.
सः अहम् इति दत्तमस्ति. सः मया विना कुत्रापि न गच्छति.
सः मया विना कुत्रापि न गच्छति. समीचीनं. शोभा भगिनी, अग्रे.
महोदय, तत्र द्वितीया अपि वक्तुं सर्वे वदन्ति चेत् सर्वम्
अभ्यास. समीचीनम्. अस्तु अस्तु, शोभदा भगिनी, द्वितीया अपि वदतु.
सः मां विना कुत्रापि न गच्छति.
हा, समीचीनम्. अस्तु,
माम् अथवा मा विना.
अस्तु, समीचीनम्. इदानीं शोभा भगिनी.
श्रद्धा इति पदं विना ज्ञानं न लभते इति. श्रद्धया विना ज्ञानं न लभते. श्रद्धां विना ज्ञानं न लभते.
समीचीनं भगिनी. तत्र प्रायशः एतद् रूपद्वयम् एतद् रूपद्वयं प्रसिद्धम् अस्ति, किन्तु श्रद्धायाः विना ज्ञानं लभते प्रायशः तत्त्वप्रसिद्धम् इति मन्ये खलु. तत्र पञ्चमी साधारणतया न पश्यामः इति मन्ये, किन्तु द्वितीया तृतीया पश्यामः. अस्तु, वेदा भगिनी अग्रे.
त्वं सङ्गः सङ्गेन, त्वं सङ्गेन विना कार्यं कुरु.
अथवा द्वितीयविभक्तिरूपम् अस्ति चेत्
सङ्गं विना.
हा, त्वं सङ्गं विना. समीचीनं भगिनि. अस्तु, अग्रे वंशीसुत भगिनि.
आं महोदय, तत्र ज्ञानम् अस्ति. ज्ञानेन विना मुक्तिः न भवति, नो चेत् ज्ञानमेव भवति. ज्ञानं विना मुक्तिः न भवति, यतोहि
ज्ञानं विना मुक्तिः न भवति. समीचीनं. हा, समीचीनम्. अस्तु, अग्रे उषा भगिनि.
ज्ञानात् विना अपि शक्तं वक्तुं.
हा, तदपि समीचीनमेव, किन्तु प्रायशः साधारणतया न पश्यामः
तद्रूप. परन्तु किमर्थं पञ्चविभक्ति दत्तवान्, योगं न कृतवान्?
इदानीं अत्र न कृतवन्तः भगिनि, किन्तु गीतासोपने द्वितीयभागे अस्ति इति मन्ये. तत्र नियमः खलु, तत्र द्वितीया तृतीया अपि पञ्चमी इति भवति इति मन्ये, तत्र विना प्रयोगे.
परन्तु तत् समीचीनं न भाति महोदय. द्वितीया अपि तृतीया समीचीनं भवति, परन्तु
हा, सत्यं सत्यं सत्यं. हा, अतः तत्र द्वितीया तृतीया एव स्वीकुर्मः अत्र. अस्तु, उषा भगिनी अग्रे.
कर्णः दिव्यकवचं, कर्णः दिव्यकवचेन विना अयुध्यत. कर्णः दिव्यकवचं विना अयुध्यत.
हा, तत्र प्रायशः कर्णः दिव्यकवचेन विना, कुण्डलाभ्यां विना अयुध्यत इति अपि वक्तुं शक्नुमः. अस्तु, अग्रे गीताञ्जलि भगिनि.
अभिमन्युः भीतिः भीतिना.
न, तत्र मतिशब्दवत् अस्ति भगिनि, मतिशब्दवत् अस्ति, स्त्रीलिङ्गपदम्.
अभिमन्युः भीत्या विना चक्रव्यूहं भिन्नवान्.
तस्य भेदनं कृतवान् इति. चक्रव्यूहं भिन्नवान्. समीचीनं. लक्ष्मी भगिनी अग्रे. क्षम्यतां भगिनि.
अश्वत्थामा मणिः मणिना.
सत्यं, समीचीनं भगिनि.
मणिना विना वनं गतवान्.
मणिना विना वनं गतवान्, अथवा मणिं विना
वनं गतवान्.
गतवान् इति. समीचीनं भगिनि. अस्तु, अतः तत्र तृतीयविभक्ति विषयस्य इदानीं तत्र समाप्तिः, किन्तु तत्र किञ्चित् अभ्यासः, अधिक अभ्यासः आवश्यकः इति कृत्वा तत्र लिङ्क् द्वयम् अस्ति तत्र ईमेल् मध्ये. तत्र किमस्ति, तत्र प्रथम लिङ्क् किमस्ति, द्वितीय लिङ्क् किमस्ति इति एकवारं द्रष्टव्यमस्ति. एकनिमेषः. तत्र प्रथम लिङ्क् किमस्ति? हा, तत्र अस्तु. हा, तत्र प्रथम लिङ्क् तत्र क्लास् 30 होम्वर्क् इति यदस्ति, हा, तत् अभ्यासः नम्बर् 180.
मम पार्श्वे नास्ति महोदय.
तत्र ईमेल् मध्ये अस्ति भगिनि, तत्र ईमेल् पश्यति चेत्. ईमेल् मध्ये तत्र वि विल् यूस् द फालोयिङ्ग् टु फैल्स् इन् क्लास् टुडे, फैल् 1, फैल् 2 इति अस्ति.
न महोदय, मम पार्श्वे न. केन् यु रीसेण्ड् इट् प्लीस्?
वेदा भगिनी खलु.
महोदय,
अस्तु, एकनिमिषः भगिनि, एकनिमिषः प्रेषयामि. एकनिमिषः. हा, अस्तु, अहं प्रेषितवान् भगिनि.
धन्यवादः महोदय.
तत्र निमिषः शब्दः नपुंसकलिङ्गे अपि भवति, पुल्लिङ्गे अपि भवति. निमिषं वक्तुं शक्यते वा? निमिषः इति वक्तुं शक्यते वा?
कुत्र भगिनि?
भवान् यत् उपयोगं कृतवान् अधुना, एकनिमिषः
एकनिमिषः
तत्र नपुंसकलिङ्गे अपि भवति
एकनिमेषः इति पुल्लिङ्गरूपम् इति चिन्तयामि भगिनि
निमिषः नपुंसकलिङ्गे अपि भवति महोदय निमिषम् अपि वक्तुं शक्यते वा
शक्नुमः वा अस्तु सन्तोषः न न न अहं चिन्तयामि पुल्लिङ्गरूपम् एव इति अतः
महोदय पुल्लिङ्गं तु अस्ति नपुंसकलिङ्गे अपि समानरूपमेव भवति अतः मम प्रश्नः जातः
एकनिमिषः इति एव साधारणतया वदामि किन्तु तत्र अस्तु अस्तु अग्रे
न प्राप्तवती महोदय
भवत्याः ईमेल् तत्र याहू मध्ये प्रेषितवान् भगिनि तत्र प्रायशः रिफ्रेश् करणीयम् अस्ति मन्ये भगिनि किन्तु प्रेषितवान् इदानीं
धन्यवादः
अस्तु तर्हि तत्र अभ्यासं तत्र वंशीसुद भगिनि भवती आरम्भं करोति वा अभ्यासः 180 इति
आं महोदय 31 तत् गणामि वा
प्रथमं तत्र वयम् इति
वयम् इति वा अस्तु प्रथममपि अस्ति अस्ति अस्तु आम् उदाहरणानुसारं कोष्टगते तै शब्दे तृतीयां संयोज्य रिक्तस्थानानि पूरयन्तु अस्तु वयम् आनन्दः आनन्देन निवसामः तेन कष्टेन जीवन्ति तेन कष्टं
न न ते कष्टेन
तत्र सः नो चेत् विना उपयोगं न कृतवान् तेन कष्टेन विना निवसा
किमर्थं न भगिनि तत्र वयम् आनन्देन निवसामः
अस्तु
इदानीं ते इति अस्ति ते जीवन्ति कथं जीवन्ति
तत्र
कष्टम् इति अस्ति कष्टेन जीवन्ति
अस्तु तत्र विना अपि सः इति द्वयोः
न न तत्र तत् नास्ति इदानीं तत् नास्ति भगिनि तत्र तत् नास्ति तत्र इदानीं तत्र तद् अग्रे आयाति किन्तु इदानीं तत्र केवलं तृतीयविभक्तेः अधिकाभ्यासः भवतु इति कृत्वा तत्र इदानीं तत्र भावः आनन्देन कष्टेन इति
तृतीयायाम् अन्ये प्रयोगाः अस्तु
तत्र तस्मिन् पुस्तके अन्याः किन्तु वयं कृतवन्तः एतत् एतम् अभ्यासम् अस्तु एतं
प्रयोगः
इदानीं भवती वदतु भगिनि ते जीवन्ति ते
कष्टेन जीवन्ति
इदानीम् अग्रिमं
सः वसति सः सुखं सुखेन वसति
सः सुखेन वसति इति समीचीनं सः सुखेन वसति समीचीनम् अस्तु अग्रे शोभा भगिनी
सन्तोषः इति हरीशः सन्तोषेण तिष्ठति तत्र णत्वं भवति महोदय
तत्र णत्वं भवति
शकारस्य
समीचीनं भगिनि हरीशः सन्तोषेण तिष्ठति समीचीनम् अस्तु अग्रे शुभदा भगिनी
शिक्षकः कोपेन ताडयति
शिक्षकः कोपेन ताडयति अत्र सर्वत्र भावः नरेश महोदय अग्रे अलसः आलस्येन जीवति समीचीनं महोदय अस्तु श्रीप्रिय भगिनी अग्रे
जननी अनायासेन पाकं करोति
अनायासेन पाकं करोति लक्ष्मी भगिनी अग्रे
दुःखितः उद्वेगेन वदति
उद्वेगेन वदति समीचीनं
अर्थः कः महोदय
उद्वेगः एक्सैटेड् इति उद्वेगेन अस्तु एमोशनलि एमोशनल् इति गीतांजलि भगिनी अग्रे
सन्तुष्टः
वैराग्येन जीवति.
वैराग्येण इति प्रायः भवति इति मन्ये.
वैराग्येण
कवर्गीय अस्ति,
कवर्गीय अस्ति, किमपि बाधा नास्ति,
यकारः अपि बाधा नास्ति, अतः वैराग्येण इति समीचीनं खलु. हा, सन्तुष्टः वैराग्येण जीवति, जीवति, समीचीनम्. उषा भगिनी अग्रे.
जनाः शान्तभावेन निवसन्ति.
हा, जनाः शान्तभावेन निवसन्ति, समीचीनं. वंशिष्ठ भगिनी अग्रे.
आं महोदय. ताः वार्तालापेन कालं यापयन्ति.
अपि ते वार्तालापेन कालं यापयन्ति.
अस्तु. ताः सीलिङ्ग् इति उक्तवान् महोदय. हा
हा, किन्तु ते अपि समीचीनमेव खलु.
आं महोदय, समीचीनम्.
हा, अस्तु. वेदा भगिनी, प्राप्तवान्, प्राप्तं वा इदानीं?
हा महोदय, प्राप्तवती. एताः दिनं यापयन्ति, जल्पनं, जल्पनेन दिनं यापयन्ति. यापयन्ति अर्थात्
स्पेण्ड्, स्पेण्ड् अथवा वेस्ट् इति प्रायशः.
तत्र स्त्रीलिङ्गशब्दाः ये दत्तवान् महोदय,
अतः उक्तवान् भगिनि, तत्र ते अपि अथवा एते, तदपि समीचीनमेव इति
वार्तालापेन.
भावानां तृतीया विभक्ति आल्वेस् इन् सिङ्ग्युलर्?
न, न, तत्र केवलम् एकम् अस्ति इति. हा,
जनाः निवसन्ति, all in plural, but still it is shantabhavena. It's not shantabhavena.
Tatra, tatra, no, tatra tu, kartrupadam, kriyapadam, tatra, tatra vachanam, vachanasya sambandham, sambandha asti, kalo. Kriyapadasya vachanam, kartrupadasya vachanam, samanam. Kintru, tritiya vibhakti va, shashti vibhakti padam, yat, vache bhavati, tatra kopi niyamah nasti, kalo. अतः तत्र किमपि भवतु तृतीयविभक्तिपदस्य एकवचनं वा द्विवचनं वा बहुवचनं वा, तत्र
भावः अस्ति, भावः अस्ति. नौ दीस् आल् आर् भावः, रैट्? वैराग्यम् एण्ड् सो
तत्र प्रायशः तत्र एकः एव भावः भवितुम् अर्हति इति. किन्तु तत्र प्रायशः सन्दर्भः, सन्दर्भः अपि सन्ति यत्र तत्र भावद्वयम् अथवा भावत्रयमपि वक्तुम् इच्छामः. तत्र प्रायशः तादृशरूपमपि भवति भगिनि, यदि तत्र महाभारतस्य कथां, कथायाः मध्ये प्रायशः तत्र भावद्वयं, भावत्रयं, तत्र गर्वस्य भावः, आनन्दस्य भावः, द्वयमपि तत्र भवति चेत् तत्र चिन्तयतु, तत्र धृतराष्ट्रः इदानीं तत्र सः पाण्डवाः ते जीवन्ति इति श्रुतवान् इदानीं. सः किं करोति? सः वार्तां कथं स्वीकरोति?
दुःखेन,
आनन्देन अपि स्वीकरोति खलु. किन्तु तत्र प्रायशः दुःख आनन्दः इति तत्र पृथक्तया वदामः, अतः तत्र दुःखेन आनन्देन इति. किन्तु दुःखानन्दसङ्गाभ्याम् इति तादृशरूपमपि भवितुम् अर्हति इति मन्ये भगिनि. तत्र प्रायशः तत् दृष्टवन्तः वा तत्र भ्याम् इति? तत्र हा, तत्र पेज् 172 मध्ये एतादृश तत्र दृष्टवन्तः इति मन्ये भगिनि. तत्र सुखज्ञानसङ्गाभ्यां जीवं देहे बध्नाति इति तत्र प्रायशः भावः नास्ति, किन्तु भावे अपि तादृशं भवितुम् अर्हति इति मन्ये भगिनि. उदाहरणं न स्मरामि, किन्तु हा, अस्तु, भवति एव इदानीं. हा, वृद्धः इति,
वृद्धः
पठनेन घण्टां यापयति.
वृद्धः पठनेन घण्टां यापयति. हा, नरेश महोदय अग्रे. बालकः
बालकः क्रीडया द्विचक्रिकां चालयति.
हा, क्रीडया द्विचक्रिकां चालयति. समीचीनं. श्रीप्रिया भगिनी.
आं महोदय. सचिवः आगमनेन सन्तोषं जनयति.
सचिवः आगमनेन सन्तोषं जनयति.
महोदय, एकः प्रश्नः अस्ति.
वदतु भगिनि. हा, श्रूयते श्रूयते.
आगमनम् इति विभज्यरूपम् अस्ति खलु महोदय, षष्टिविभक्ति. सचिवस्य आगमनेन सन्तोषं जनयति.
न न न, सचिवस्य आगमनेन इति सन्तोषः भवति इति वक्तुं शक्नुमः, किन्तु सन्तोषं जनयति न इति रूपं न भवति खलु. यतोहि तत्र यदि सचिवस्य आगमनम् इति वदामः, तत्र सचिवस्य आगमनेन ओ अथवा किं भवती किं वक्तुम् इष्टवती, तत्र सचिवस्य आगमनम् इति वा?
सचिवस्य आगमनेन सन्तोषं जनयति न
भवति वा? न भवति, न भवति. एतद् वक्तुं शक्नुमः, सचिवस्य आगमनं सन्तोषं जनयति. तद् वक्तुं शक्नुमः, सचिवस्य आगमनं सन्तोषं जनयति. अथवा सचिवस्य आगमनेन सन्तोषः अभवत् इति, अथवा सन्तोषः अभवत् इति. यतोहि तत्र सचिवस्य आगमनेन इति अस्ति चेत् तत्र सचिवस्य कर्तृपदं नास्ति, आगमनेन अपि कर्तृपदं नास्ति. इदानीं तत्र सन्तोषं जनयति अस्ति चेत् तत्र सन्तोषं कर्तृपदं नास्ति. इदानीं जनयति इति क्रियापदम् अस्ति, अतः तत्र कर्तृपदं किम्? अतः तत्र सन्तोषः अभवत् इति प्रायशः भवति चेत् तत्र सन्तोषः अभवत्. केन कारणेन? सचिवस्य आगमनेन सन्तोषः अभवत् इति भवति.
धन्यवादः.
हा, तत्र कारणतृतीया इति, तेन कारणेन एतत् भवति इति. अस्तु, भवती एव वा इदानीं?
अहमेव पठितवती. सचिवः,
हा, सचिवस्य. अस्तु 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 अस्तु, धन्यवादः. अस्तु, अग्रे लक्ष्मी भगिनी. हा,
अस्तु महोदय. गृहजनः आदरः आदरेण स्वागतीकरोति.
हा, स्वागतीकरोति. हा, तत्र स्वागतं करोति. गृहजनः इति अस्ति. हा, करोति एकवचने. हा, स्वागतं करोति. आदरेण स्वागतं करोति. अत्र स्वागतीकरोति.
स्वागतीकरोति.
स्वागती अपि शब्दमस्ति वा?
स्वागती इति नास्ति भगिनि, तत्र स्वागतं करोति इति. तत्र यत्र करोति इति भवति तत्र एतादृश अनेकानि पदानि सन्ति. तत्र शुक्लीकरोति, अतः तत्र ईकारः भवति. ईकारः करोति इति पूर्वम् ईकारः भवति. तत्र
समीकरोति अपि अस्ति.
हा, समीकरोति. हा, सत्यं भगिनि. अतः तत्र करोति इति पूर्वं तत्र शुक्लीकरोति, कृष्णीकरोति इति. तत्र करोति इति पूर्वम् इकारः आगच्छति. तत्र मया न स्मर्यते किमर्थम् इति इदानीं, किन्तु तत्र तस्य समाधानम् अस्ति. हा, करोति इति पूर्वं तत्र स्वागती करोति इति इकारस्य आगमनं भवति इति. अस्ति अस्ति, न स्मरामि भगिनि, किन्तु दृष्टवान्. हा, अस्तु. गीताञ्जलि भगिनि अग्रे.
अलसः अपेक्षया
उपेक्षया
कार्यं करोति.
अलसः उपेक्षया
कार्यं
करोति. हा समीचीनम्. उषा भगिनी अग्रे.
आं महोदय, त्वं
क्षम्यतां
उपेक्षा इत्युक्ते अहं चिन्तयामि तत्र इनटेटिव् अथवा नेग्लिजेंट इति.
नेग्लेक्ट्.
हा गीताञ्जलि भगिनी. हा भवती उक्तवती. क्षम्यताम् उषा भगिनी अग्रे. हा
त्वं मा व्यवहर. ईर्ष्या. ईर्ष्या इति अस्ति चेत् ईर्ष्या अपि ईर्ष्या तृतीयविभक्ति अस्ति वा महोदय?
न न न, ईर्ष्या इति आकारान्त स्त्रीलिङ्गपदम्.
ईर्ष्या अपि अस्ति न महोदय?
किन्तु एतत् तृतीयविभक्तिरूपं नास्ति. यत् पदं दत्तमस्ति तत् प्रथमविभक्तिरूपं दत्तमस्ति.
अस्तु महोदय.
मा व्यवहर. मा व्यवहर इति रूपं किं? व्यवहर व्यवहर इति रूपं लोट् लकार. लोट् लकार. समीचीनं. त्वं व्यवहर. समीचीनं. त्वं मा व्यवहर. समीचीनं. वंशीसुधा भगिनी अग्रे.
दरिद्रः असूया धनिकं. दरिद्रः असूयया धनिकं पश्यति.
असूयया धनिकं पश्यति. पश्यति. समीचीनम्. हा अस्तु. अग्रे वेदा भगिनि.
महोदय, एकनिमिषं. भवान् त्यागः. त्यागेन कीर्तिं प्राप्नोतु.
भवान् त्यागेन कीर्तिं प्राप्नोतु इति. समीचीनम्. अस्तु. अग्रे अग्रिमपुटे शुभदा भगिनी आरम्भं करोति वा?
महोदय, उदाहरणानुगुणं रिक्तस्थानानि पूरयन्तु. सः समीचीनतया लिखति. समीचीनता पदं दत्तमस्ति ब्राकेट्स् मध्ये. सः समीचीनतया लिखति.
हा इदानीं तत्र सर्वत्र किं ताता ताता ता अस्ति सर्वं भावः. समीचीनता इति समीचीनतया इति रूपम्. अस्तु. समीचीनम्. अग्रे अध्यापकः.
अध्यापकः सरलतया पाठयति.
हा अध्यापकः सरलतया पाठयति. समीचीनं भगिनि. अस्तु. अग्रे शोभा भगिनि.
छात्रा स्पष्टता इति पदं दत्तं. छात्रा स्पष्टतया लिखति.
हा स्पष्टतया लिखति. वंशीसुधा भगिनी अग्रे.
आं महोदय, तत्र चित्रकारः सुचारुतया चित्रं करोति. सुचारुतया. तत्र सुचारुता किम् अस्ति महोदय?
न जानामि भगिनि. धन्यवादः. अस्तु. ब्यूटिफुलि. अस्तु. समीचीनम्. उषा भगिनी अग्रे.
महोदय, चित्रकार कृषकः पूर्णतया कर्षति.
हा पूर्णतया कर्षति. समीचीनम्. गीताञ्जलि भगिनी अग्रे.
व्याख्याकारः स्पष्टतया व्याख्यां करोति.
व्याख्यां करोति. समीचीनं. लक्ष्मी भगिनी अग्रे.
कविः एकाकितया निवसति.
हा एकाकितया निवसति. एकाकी अस्ति कविः. हा लोन्लिनेस् इति. तत्र एकाकितया निवसति. श्रीप्रिया भगिनी अग्रे.
महिला
भीरुतया व्यवहरति. हा नरेश मोदी अग्रे.
राक्षसः भयङ्करतया गर्जति.
हा भयङ्करतया गर्जति. नरेश महोदय. अस्तु. इदानीं तत्र शुभदा भगिनी.
व्याघ्रः क्रूरतया पश्यति.
व्याघ्रः क्रूरतया पश्यति. वेदा भगिनी अग्रे.
महोदय तरुणी सुन्दरतया लिखति.
हा सुन्दरतया लिखति. शोभा भगिनी अग्रे.
सः विशालतया कण्ठं प्रसारयति. कटं प्रसारयति.
हा तत्र कटं विशालतया इति अवगच्छामि. कटम् इति किम् अस्ति तत्र? नेट् वा?
मेट्.
मेट् मेट् कटं कटम् अस्तु. धन्यवादः. हा अस्तु. अग्रे वंशीसुधा भगिनी.
आं महोदय. सज्जनः रुजुतया जीवति.
हा रुजुतया हानेस्टि. हा रुजुतया जीवन्ति. अस्तु. तत्र निर्व्याजेन इति तदपि भवति तत्र. किन्तु अत्र भावः रुजुता इति. हा उषा भगिनि.
जननी मधुरतया पाकं कृतवती.
हा मधुरतया पाकं कृतवती. हा गीताञ्जलि भगिनि अग्रे.
वैद्यः समर्थतया शल्यचिकित्सां कृतवान्. समर्थतया इत्युक्ते
निपुणतया.
निपुणतया
निपुणतया इति. हा समर्थतया. हा शल्यचिकित्सां कृतवान्. समीचीनम्. अस्तु अग्रे लक्ष्मी भगिनी.
शल्यचिकित्सा किं महोदय?
सर्जरि इति तादृश अस्ति इति मन्ये भगिनि.
अस्तु अस्तु महोदय.
हा तत्र निपुणता अपेक्षिता अस्ति खलु?
सत्यं महोदय. किन्तु शल्य
शल्य इति तदेव अस्ति इति मन्ये भगिनि. तत्र पश्यामः. तत्र
सर्जरि अस्ति शल्यचिकित्सा.
हा अस्तु. हा अथवा तत्र हा सर्जरि इति. सर्जरि इति
अस्तु महोदय.
हा अस्तु अग्रे. तत्र
ग्रन्थकारः विस्तृतया ग्रन्थं रचयति.
विस्तृतया ग्रन्थं रचयति. समीचीनं. श्रीप्रिया भगिनी अग्रे.
महोदय शल्य इत्युक्ते किमपि एकं एरो जावलिन्?
न न न न न तत्सर्वम् अस्ति. किन्तु तत्र चिकित्सा विषये अस्ति. अतः पदस्य एकस्य पदस्य अनेकाः अर्थाः भवन्ति खलु भगिनि. अतः तत्र सन्दर्भानुसरेण तत्र किं भवति इति. अत्र प्रायशः तत्र सर्जरि इति मन्ये इति.
आं महोदय. शल्यक्रिया इति अपि अस्ति. किन्तु शल्यचिकित्सा इति सर्जरि.
सर्जरि अस्तु. हा अस्तु. धन्यवादः. अस्तु. इदानीं श्रीप्रिया भगिनि.
कथाकारः मनोरञ्जकतया कथां कथयति.
हा मनोरञ्जकतया कथां कथयति. समीचीनं. हा नरेश महोदय अग्रे.
नगरं दृष्टवान्.
हा इदं प्रथमतया इत्युक्ते प्रथमवारं सः पश्यति इति. अतः इदं प्रथमतया नगरं दृष्टवान्. पूर्वं न दृष्टम्, अदृष्टम् इति. अस्तु अग्रे शुभदा भगिनि.
प्रश्न अस्ति महोदय. यदि केवल प्रथमतया नगरं दृष्टवान् इति दत्तं तत्तु समानार्थकं.
न न न इदं प्रथमता इत्युक्ते तत्र प्रथमवारं यदि किमपि पश्यामः तत्र स्पेल् बौण्ड् इति तदेव पश्यन् स्मः खलु भगिनि.
ओ इदं तत् अर्थ
इदं प्रथमता इदं प्रथमतया इति. सः कथं दृष्टवान् इत्युक्ते प्रथमवारं सः पश्यति. अतः तत्र सर्वं द्रष्टुम् इच्छति इति तादृशार्थे. एतदस्ति, ओ एतदपि नगरे अस्ति वा, ओ एतत् पश्यतु एतत् पश्यतु इति तादृशः भावः इति मन्ये. शुभदा भगिनी अग्रे.
ऐन्द्रजालिकः आकस्मिकतया कौशलं दर्शयति.
इन्द्रजालिका आकस्मिकतया सः निपुणः नास्ति इति मन्ये, अतः अनेकवार अनन्तरं प्रथमवारं सः निपुणता प्रदर्शितवान्, अतः ऐन्द्रजालिकः आकस्मिकतया कौशलं दर्शयति इति. अस्तु, इदानीं तत्र अन्यदपि लिङ्क् अस्ति तत् कर्तुं शक्नुमः इति मन्ये. तत्र यद्यपि अनेकाः पुटाः सन्ति, तत्र भवन्तः तत्र सर्वं दृष्टवन्तः एव. तत्र विना सर्वमस्ति, सः विना सर्वम् अस्ति, किन्तु कस्मिन् पुटे, तत्र पञ्चमे पुटे, तत् विना योगे तृतीया इति यदस्ति, पञ्चमे न न अन्तिमपुटे, अन्तिमपुटे तावदेव, एकमेव पुटम् एकमेव अभ्यासः तत्र. तत्र अभ्यासः 188 दृश्यते वा तत्र? हा तदेव, तत् कृत्वा समापयितुं शक्नुमः इति मन्ये. अस्तु, तत्र गीताञ्जलि भगिनी आरम्भं करोति वा?
मञ्जूषातः उचितं पदं चित्वा तस्य उचितेन रूपेण रिक्तस्थानानि पूरयन्तु. मीनाः जलेन विना न जीवन्ति. द्वितीय तु बालः विना रोदिति. बालः दुःखेन विना रोदिति.
हा, समीचीनं समीचीनं भगिनि. हा अस्तु, वंशीसुत भगिनि अग्रे. एकनिमिषं भगिनि, तत्र किमपि न श्रूयते, एकनिमिषं.
न श्रूयते वा महोदय?
हा इदानीं श्रूयते भगिनि. हा इदानीं श्रूयते. हा,
दुर्जनाः विना न तिष्ठन्ति, अपकारेण विना न तिष्ठन्ति महोदय.
अस्तु, अहं चिन्तितवान् दण्डेन विना न
तिष्ठन्ति.
किन्तु अपकारः एव समीचीनम्. अस्तु, उषा भगिनी अग्रे.
दुर्जनः
महिलाः
विना न उपविशन्ति. महिलाः किम् अस्ति? अन्नम्, अध्ययनं, पुस्तकं,
लिङ्गं, वार्ता, लिङ्गं सम्बन्ध.
न न न न, तत्र तृतीया 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 विभक्ति अपेक्षितं भगिनि. हा,
वार्तया
अथवा वार्ताम् अथवा वार्तया,
वार्ताभिः न महोदय, बहुवचनं महिलाः.
न न न, महिलाः भवति किन्तु विना इति अस्ति. न भगिनि, तत्र विना अस्ति चेत्. हा अस्तु, वार्ताभिः विना. अस्तु,
एतत् पुस्तकं कोऽपि पुरुषः लिखितवान् महोदय.
सत्यं भगिनि, सत्यं सत्यं सत्यं. हा, अतः तत्र यत्र यत्र एतदस्ति तत्र परिवर्तनं करणीयमस्ति. तत्र नूतनवाक्यं किं स्थापयितुं शक्नुमः? पुरुषाः डाश् विना न उपविशन्ति, किं स्थापयितुं शक्नुमः तत्र?
दण्डेन प्रायः.
अथवा दण्डैः इति.
दण्डैः.
अस्तु,
महिलाः अपकारं विना न तिष्ठन्ति.
न न न, किन्तु उपविशन्ति, तत्र केवलम् उपविशन्ति इति अस्ति भगिनि. अतः तत्र अपि अपकारं तत्र दुर्जनाः इति, तत्र तस्य उपयोगम् अभवत्. इदानीं तत् पुनः तस्य उपयोगः न भवति.
पुस्तकमपि साधु एव महोदय.
सत्यं भगिनि. अध्ययनेन विना अध्ययनेन विना उपविशन्ति तदपि समीचीनमेव. अतः तत् स्थापयतु.
दुग्धम् अपि दुग्धं पदम्
अपि
चायं
तत्र स्वातन्त्र्यम् अस्ति. यत् भवती इच्छति तत् स्थापयितुं शक्नोति. अस्तु, अतः भवत्याः वाक्यं किम्?
अध्ययनेन
विना
न उपविशन्.
अस्तु, समीचीनं. हा, गीताञ्जलि भगिनी अग्रे.
बालकाः तत्तु उषा भगिनी
महिला
ओ महिला कृतम्. अस्तु, अध्यापकाः पुस्तकैः विना न वसन्ति.
हा, पुस्तकैः विना न वसन्ति. अस्तु, समीचीनं. लक्ष्मी भगिनी.
बालकाः किम् आगच्छति
अत्र अध्ययनम्
अत्र तत्रापि स्थापयतु. अस्तु, स्थापयतु भगिनी.
अध्ययनेन विना मूर्खाः भवन्ति.
मूर्खाः भवन्ति, समीचीनं. हा, श्रीप्रिया भगिनी अग्रे.
जनाः अन्नेन विना दुर्बलाः भवन्ति.
अन्नेन विना दुर्बलाः भवन्ति, समीचीनं. नरेश महोदय.
दण्डेन विना न चलति.
वृद्धः दण्डेन विना न चलति, समीचीनं. हा, शुभदा भगिनी.
अन्धकारः सूर्येण विना न अपगच्छति.
सूर्येण विना न अपगच्छति. अस्तु, वेदा भगिनी, शोभा भगिनी, भवत्याः एव वाक्यं विना इति वाक्यम् उपयुज्य विना उपयुज्य वाक्यं वदति वा?
अधोभागे द्वे अपि
ओ तत्र अपि अस्ति. धन्यवादः. अस्तु, अस्तु, वेदा भगिनी तत्र वेदा भगिनी लवणम् इति उपयुज्य
लवणेन विना अन्नं रुचिकरं न भवति,
समीचीनम्. अस्तु, शोभा भगिनी.
सूर्यप्रकाशेन विना जीवनं न शक्यं.
न शक्यम्. अस्तु, न शक्यं, समीचीनम्. अस्तु, अस्तु, सर्वे उक्तवन्तः. वंशीसुधा भगिनी धन्यवादः. अन्तिमपुटम् अहं न दृष्टवान् किन्तु समीचीनम् आसीत् इदानीम्. अस्तु, 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 तर्हि अतः तत्र वार्ता का इत्युक्ते तृतीया विभक्तिः कुत्र कुत्र भवति, तत्र माध्यमं यत्र अस्ति तत्र तृतीया भवति, भावः यत्र अस्ति तत्र तृतीया भवति, सहयोगे तृतीया भवति, विना योगे तृतीया भवति. अपि अन्यः एकः प्रसिद्धः प्रयोगः अस्ति, तदस्ति कर्मणि प्रयोगः. एतावता वयं न दृष्टवन्तः, किन्तु तद् अग्रे भवति. तस्मिन्नपि तृतीयाविभक्तिरूपस्य तृतीयविभक्तिरूपस्य महत्त्वम् अस्ति तत्र कर्मणि प्रयोगः, भावे प्रयोगः इति. अस्तु, तर्हि अत्र विरमाम, अग्रिमवर्गे मिलामः. तत्र श्रीप्रिया भगिनी तत्र अन्ते श्लोकः रूपेण किमपि वदति वा भगिनि?
सर्वे भवन्तु सुखिनः.
अस्तु, वदतु भगिनि.
सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्ति. हरि ओम्.
धन्यवादः.